कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमान्धिकम् कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमान्धिकम् उत्तिष्ठोत्तिष्ठ गोविंद उत्तिष्ठ गरुडध्वज उत्तिष्ठ कमला कांता त्रैलोक्यं मंगलं कुरु उत्तिष्ठोत्तिष्ठ गोविंद उत्तिष्ठ गरुडध्वज उत्तिष्ठ कमला कांता त्रैलोक्यं मंगलं कुरु मातः समस्त जगतां मधुकैटभारे वक्षो विहारिणि मनोहर दिव्यमूर्ते श्रीस्वामिनिश्रित जनप्रियदानशीले श्रीवेङ्कटेश दयिते तव सुप्रभातम् मातः समस्त जगतां मधुकैटभारे वक्षो विहारिणि मनोहर दिव्यमूर्ते श्रीस्वामिनिश्रित जनप्रियदानशीले श्रीवेङ्कटेश दयिते तव सुप्रभातम् तव सुप्रभातमरविन्दलोचने भवतु प्रसन्नमुखचन्द्रमण्डले विधिशङ्करेन्द्रवनिताभिरर्चिते वृषशैलनाथ दयिते दयानिधे अत्र्यादिसप्तऋषयः समुपास्य सन्ध्याम् आकाशसिन्धुकमलानि मनोहराणि आदाय पादयुगमर्चयितुम् प्रपन्नाः शेषाद्रिशेखर विभो तव सुप्रभातम् पञ्चाननाभ्यभव षण्मुखवासवाद्या त्रैविक्रमादिचरितम् विबुधा स्तुवन्ति भाषापतिः पठति वासरशुद्धिमारात् शेषाद्रिशेखर विभो तव सुप्रभातम् ईषत् प्रफुल्ल सरसीरुहनारिकेल पूगद्रुमादिषु मनोघर पालिकानाम् आवाति मन्दमनिलः सह दिव्यगन्धैः शेषाद्रिशेखर विभो तव सुप्रभातम् उन्मील्य नेत्रयुगमुत्तम पञ्जरस्थाः पात्रावशिष्ट कदली फलपायसानि भुक्त्वा सलीलमथ केलिशुका पठन्ति शेषाद्रिशेखर विभो तव सुप्रभातम् तन्त्री प्रगर्ष मधुरस्वनया विपञ्च गायत्यनन्दचरितम् तव नारदोऽपि भाषा समग्रमसहृत्करचार रम्यम् शेषाद्रिशेखर विभो तव सुप्रभातम् भृङ्गावळी च मकरन्दरसानुविद्ध जङ्गार गीत निनदैः सह सेवनाय गिर्यात्युपान्त सरसी कमलोदरेभ्यः शेषाद्रिशेखर विभो तव सुप्रभातम् योषा गणेन वरदध्नि विमथ्यमाने घोषालयेषु दधिमन्थन तीव्र घोषाः रोषात् कलिम् विदधते कगुभश्च कुम्भाः शेषाद्रिशेखर विभो तव सुप्रभातम् पद्मेश मित्र शतपत्र गतालिवर्गाः हर्तुम् श्रियम् कुवलयस्य निजाङ्गलक्ष्म्या भेरी निनादमिव बिभ्रति तीव्रनादम् शेषाद्रिशेखर विभो तव सुप्रभातम् श्रीमन्नभीष्टवरदाखिल लोकबन्धो श्री श्रीनिवास जगदेक दयैक सिन्धो श्रीदेवता गृह भुजान्तर दिव्यमूर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् श्रीमन्नभीष्टवरदाखिल लोकबन्धो श्री श्रीनिवास जगदेक दयैक सिन्धो श्रीदेवता गृह भुजान्तर दिव्यमूर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् श्रीस्वामि पुष्करिणि काप्लव निर्मलाङ्गाः श्रेयोर्धिनोहर विरिञ्च सनन्दनाद्याः द्वाये वसन्ति वरवेत्र हतोत्तमाङ्गाः श्रीवेङ्कटाचलपते तव सुप्रभातम् श्रीशेषशैल गरुडाचल वेङ्कटाद्रिनारायणाद्रिवृषभाद्रिविषाद्रिमुख्याम् आख्यां त्वदीय वसतेरनिशं वदन्ति श्रीवेङ्कटाचलपते तव सुप्रभातम् सेवा परा शिव सुरेश कृशानुधर्म रक्षोऽम्बुनाथ पवमान धनाधिनाथाः బద్ధాంజలి ప్రవిలసన్ నిజ శీర్ష దేశా శ్రీవేంకటాచలపతే తవ సుప్రభాతం భాటీషు దేవిహ గరాజ మృగాధిరాజ నాగాధిరాజ గజరాజ హయాధిరాజా స్వస్వాధికార మహిమాధికమర్థయంతే శ్రీవేంకటాచలపతే తవ సుప్రభాతం సూర్యేందు భౌమ బుధ వాక్ పరికావ్య సౌరిస్వర్భానుకేతు దివిషత్ పరిషత్ ప్రధానాః త్వద్దాస దాస చరమావధి దాస దాసాః శ్రీవేంకటాచలపతే తవ సుప్రభాతం త్వత్పాద ధూళి భరిత స్ఫులితోత్తమాంగాః స్వర్గాపవర్గ నిరపేక్ష నిజాంతరంగాః కల్పాగమాకల నయాకులతాం లభంతే శ్రీవేంకటాచలపతే తవ సుప్రభాతం త్వద్గోపురాగ్ర శిఖరాణి నిరీక్షమాణాః స్వర్గాపవర్గ పదవీం పరమాం శ్రయంతః మర్త్యా మనుష్య భువనే మతిమాశ్రయంతే శ్రీవేంకటాచలపతే తవ సుప్రభాతం శ్రీభూవినాయక దయాది గుణామృతాబ్ధే దేవాదిదేవ జగదేక శరణ్యమూర్తే శ్రీమన్నంత గరుడాదిభిరచితాంఘ్రే శ్రీవేంకటాచలపతే తవ సుప్రభాతం శ్రీపద్మనాభ పురుషోత్తమ వాసుదేవ వైకుంఠ మాధవ జనార్దన చక్రపాణే శ్రీవత్స చిహ్న శరణాగత పారిజాత శ్రీవేంకటాచలపతే తవ సుప్రభాతం కందర్ప దర్ప హర సుందర దివ్యమూర్తే కాంతాకుజాంబురుహకుడ్మలలోల దృష్టే కళ్యాణ నిర్మల గుణాకర దివ్య కీర్తే శ్రీవేంకటాచలపతే తవ సుప్రభాతం మీనాకృతే కమఠకోల నృసింహవర్ణిన్ స్వామిన్ పరశ్వత తపోధన రామచంద్ర శేషాంశ రామయదునందన కల్కిరూప శ్రీవేంకటాచలపతే తవ సుప్రభాతం లేలాలవంగ ఘనసార సుగంధి తీర్థం దివ్యం వియస్సరితి హేమ ఘటేషు పూర్ణం ధృత్వాద్య వైదిక శిఖామణయ ప్రహృష్టాః తిష్ఠంతి వేంకటపతే తవ సుప్రభాతం భాస్వానుదేతి విగచాని సరోరుహాణి సంపూరయంతి నినదైక బుభో విహంగా శ్రీవైష్ణవాస్తతమర్థిత మంగళాస్తే ధామాశ్రయంతి తవ వేంకట సుప్రభాతం బ్రహ్మాదయసురవరాః సమహర్షయస్తే సంత సనందన ముఖాస్తవ యోగివర్యాః ధామాంతికే తవ హి మంగళవస్తుహస్తాః శ్రీవేంకటాచలపతే తవ సుప్రభాతం లక్ష్మీనివాస నిరవద్య గుణైక సింధో సంసార సాగర సముత్తరణైక సేతో వేదాంత వేద్య నిజ వైభవ భక్త భోగ్య శ్రీవేంకటాచలపతే తవ సుప్రభాతం లక్ష్మీనివాస నిరవద్య గుణైక సింధో సంసార సాగర సముత్తరణైక సేతో వేదాంత వేద్య నిజ వైభవ భక్త భోగ్య శ్రీవేంకటాచలపతే తవ సుప్రభాతం ఇత్థం వృషాచలపతేరిహ సుప్రభాతం ఏ మానవాః ప్రతిదినం పఠితుం ప్రవృత్తాః తేషాం ప్రభాత సమయే స్మృతిరంగభాజాం ప్రజ్ఞాం పరార్థ సులభాం పరమాం ప్రసూతే ఇత్థం వృషాచలపతేరిహ సుప్రభాతం ఏ మానవాః ప్రతిదినం పఠితుం ప్రవృత్తాః తేషాం ప్రభాత సమయే స్మృతిరంగభాజాం ప్రజ్ఞాం పరార్థ సులభాం పరమాం ప్రసూతే కమలాకుచూచుక కుంకుమతో నియతారుణితాతుల నీలతనో కమలాయతలోచన లోకపతే విజయీ భవ వెంకట శైలపతే కమలాకుచూచుక కుంకుమతో నియతారుణితాతుల నీలతనో కమలాయతలోచన లోకపతే విజయీ భవ వెంకట శైలపతే స చతుర్ముఖ షణ్ముఖ పంచముఖ ప్రముఖాఖిల దైవత మౌలిమణే శరణాగత వత్సల సార నిధే పరిపాలయ మాం వృష శైలపతే अतिवेलतया तव दुर्विषहैरनुवेलकृतैरपराधशतैः हरितं त्वरितं वृषशैलपते परया कृपया परिपाहि हरे अधिवेङ्कटशैलमुदारमतेर्जनदाभिमताधिकदानरतात् परदेवतया गदितान्निगमै कमलादयितान्न परं कलये कलवेणुरवा वशगोपवधू शतकोटिवृतास्मरकोटिसमात् रतिवल्लविकाभिमताः सुखदा वसुदेवसुतान्न परं कलये अभिराम गुणाकर दाशरथे जगदेक धनुर्धर धीरमते रघुनायक राम रमेश विभो वरदो भवदेव दया जलधे अवनीत नया कमनीय करम रजनीकर चारु मुखाम्बुरुहम् रजनीचर राज तमो मिहिरम् महनीयमहम् रघुराममये सुमुखम् सुहृदम् सुलभम् सुखदम् स्वनुजम् च सुखाय ममोघशरम् अपहाय रघुद्वहमन्यमहम् न कथञ्चन कञ्चन जातु भजे विना वेङ्कटेशम् न नाथो न नाथ सदा वेङ्कटेशम् स्मरामि स्मरामि हरे वेङ्कटेश प्रसीद प्रसीद प्रियम् वेङ्कटेश प्रयच्छ प्रयच्छ विना वेङ्कटेशम् न नाथो न नाथ सदा वेङ्कटेशम् स्मरामि स्मरामि हरे वेङ्कटेश प्रसीद प्रसीद प्रियम् वेङ्कटेश प्रयच्छ प्रयच्छ अहम् दूरतस्ते पदाम्भोज युग्म प्रणामे क्षयागत्य सेवाम् करोमि सकृत्सेवया नित्यसेवा फलम् त्वम् प्रयच्छ प्रयच्छ प्रभो वेङ्कटेश अज्ञानिना मया दोषान् अशेषान् विहितान् हरे क्षमस्व त्वम् शेषशैलशिखामणे अज्ञानिना मया दोषान् अशेषान् विहितान् हरे क्षमस्व त्वम् शेषशैलशिखामणे ईशानाम् जगतोऽस्य वेङ्कटपतेर्विष्णोः पराम् प्रेयसीम् तद्वक्षस्थलनित्यवासरसिकाम् तत्क्षान्तिसंवर्धिनीम् पद्मालङ्कृतपाणिपल्लवयुगाम् पद्मासनस्थाम् श्रियम् वात्सल्यादिगुणोज्ज्वलाम् भगवतीम् वन्दे जगन्मातरम् ईशानाम् जगतोऽस्य वेङ्कटपतेर्विष्णोः पराम् प्रेयसीम् तद्वक्षस्थलनित्यवासरसिकाम् तत्क्षान्तिसंवर्धिनीम् पद्मालङ्कृतपाणिपल्लवयुगाम् पद्मासनस्थाम् श्रियम् वात्सल्यादिगुणोज्ज्वलाम् भगवतीम् वन्दे जगन्मातरम् श्रीमन्कृपाजलनिधे कृत सर्वलोक सर्वज्ञशक्तनत वत्सल सर्वशेषिन् स्वामिन् सुशील सुलभाश्रुत पारिजात श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये श्रीमन्कृपाजलनिधे कृत सर्वलोक सर्वज्ञशक्तनत वत्सल सर्वशेषिन् स्वामिन् सुशील सुलभाश्रुत पारिजात श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये आनूपुरार्पित सुजात सुगन्धि पुष्प सौरभ्य सौरभकरौ समसन्निवेशौ सौम्यौ सदानुभवनेऽपि नवानुभाव्यौ श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये सद्यो विकासि समुदित्वर सान्द्र राग सौरभ्य निर्भर सरोरुप साम्यवार्ताम् सम्यक्षु साहस पदेषु विलेखयन्तौ श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये रेखामयध्वज सुधाकलशातपद्रवज्राम्बुशाम्बुरुहकल्पकशङ्खचक्रैः भव्यैरलङ्कृततलौ परतत्त्वचिह्नैः श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये ताम्रोदरद्युतिपराजितपद्मरागौ बाह्यैर्महोभिरभिभूतमहेन्द्रनीलौ उद्यन्नकांशुभिरुदस्तशशाङ्कभासौ श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये सप्रेमभीतिकमलाकरपल्लवाभ्याम् संवाहनेऽपि सपदि क्रममादधानौ कान्तावाङ् मनसगोचरसौ कुमार्यौ श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये लक्ष्मीमही तदनुरूप निजानुभाव नीलादि दिव्य मलिशीकर पल्लवानाम् आरुण्य संक्रमणत किल सान्द्र रागौ श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये निधिध्यानमद्भिः शिवादि किरीट कोटि प्रत्युक्त दीप्त नवरत्न महप्ररोगैः नीराजना विधिमुदारमुपादधानौ श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये विष्णौ पदे परम इत्युदित प्रशंसौ यौ मध्व उत्स इति भोग्यतयाप्युपातौ भूयस्ततेति तव पाणितल प्रतिष्ठौ श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये पार्थायतः सदृशसारथिना त्वयैव यौ दर्शितौ स्वचरणौ शरणम् व्रजेति भूयोऽपि मह्यमिहतौ करदर्शितौ ते श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये मन्मूर्धिकालीयपणे विकटाटवीषु श्रीवेङ्कटाद्रिशिखरे शिरसि श्रुतीनाम् चित्तेऽप्यनन्यमनसाम् सममाहितौ ते श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये अम्लानघृष्यतवनीतलकीर्णपुष्पौ श्रीवेङ्कटाद्रिशिखराभरणायमानौ आनन्दिताखिलमनोनयनौ तवैतौ श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये प्रायः प्रपन्न जनता प्रथमावगाह्यौ मातुस्तनाविव शिशोरमृतायमानौ प्राप्तौ परस्परतुलामतुलान्तरौ ते श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये सत्त्वोत्तरैः सतत सेव्य पदाम्बुजेन संसारतारकदयार्द्रदृगञ्चलेन सौम्योपयन्तृमुनिनाम मदर्शितौ ते श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये सत्त्वोत्तरैः सतत सेव्य पदाम्बुजेन संसारतारकदयार्द्रदृगञ्चलेन सौम्योपयन्तृमुनिनाम मदर्शितौ ते श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये श्रीशश्रिया घटिकया त्वदुपाय भावे प्राप्ये त्वयि स्वयमुपेय दया स्फुरन्त्या नित्याश्रिताय निरवद्य गुणाय तुभ्यम् श्याम् किम् करो वृषगिरीश न जातु मह्यम् श्रीशश्रिया घटिकया त्वदुपाय भावे प्राप्ये त्वयि स्वयमुपेय दया स्फुरन्त्या नित्याश्रिताय निरवद्य गुणाय तुभ्यम् श्याम् किम् करो वृषगिरीश न जातु मह्यम् श्रियकान्ताय कल्याण निधये निधयेऽर्थिनाम् श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् श्रियकान्ताय कल्याण निधये निधयेऽर्थिनाम् श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् लक्ष्मीसविभ्रमालोकसुभ्रूविभ्रमचक्षुषे चक्षुषे सर्वलोकानाम् वेङ्कटेशाय मङ्गलम् श्रीवेङ्कटाद्रिशृङ्गाद्रमङ्गलाभरणाङ्गये मङ्गलानाम् निवासाय श्रीनिवासाय मङ्गलम् सर्वावयवसौन्दर्यसम्पदा सर्वचेतसाम् सदा सम्मोहनायास्तु वेङ्कटेशाय मङ्गलम् नित्याय निरवद्याय सत्यानन्दचिदात्मने सर्वान्तरात्मने श्रीमद्वेङ्कटेशाय मङ्गलम् स्वदः सर्वविदे सर्वशक्तये सर्वशेषिणे सुलभाय सुशीलाय वेङ्कटेशाय मङ्गलम् परस्मै ब्रह्मणे पूर्णकामाय परमात्मने प्रयुञ्जे परतत्त्वाय वेङ्कटेशाय मङ्गलम् आकालतत्त्वमशान्तमात्मनामनुपश्यताम् अतृप्त्यमृतरूपाय वेङ्कटेशाय मङ्गलम् प्रायस्वचरणौ पुंसाम् शरण्यत्वेन पाणिना कृपया दिशते श्रीमद्वेङ्कटेशाय मङ्गलम् दयामृततरङ्गिण्यास्तरङ्गैरिव शीतलैः अभाङ्गैः सिञ्चते विश्वम् वेङ्कटेशाय मङ्गलम् श्रद्भूषाम्बरहेतीनाम् सुषमावकमूर्तये सर्वार्तिशमनायास्तु वेङ्कटेशाय मङ्गलम् श्रीवैकुण्ठविरक्ताय स्वामि पुष्करिणीतटे रमया रममाणाय वेङ्कटेशाय मङ्गलम् ಶ್ರೀ ವೈಕುಂಠ ವಿರಕ್ತಾಯ ಸ್ವಾಮಿ ಪುಷ್ಕರಣೀ ತಟೇ ರಮಯಾ ರಮಮಾಣಾಯ ವೆಂಕಟೇಶಾಯ ಮಂಗಳಂ. ಶ್ರೀಮತ್ ಸುಂದರ ಜಾಮಾತೃ ಮುನಿಮಾನಸ ವಾಸಿನೇ ಸರ್ವಲೋಕ ನಿವಾಸಾಯ ಶ್ರೀನಿವಾಸಾಯ ಮಂಗಳಂ. ಮಂಗಳಾಶಾಸನ ಪರೈರ್ಮದಾಚಾರ್ಯ ಪುರೋಗಮೈ ಸರ್ವೈಶ್ಚ ಪೂರ್ವೈರಾಚಾರ್ಯೈ ಸತ್ಕೃತಾಯಾಸ್ತು ಮಂಗಳಂ.